नौमा स्कंध अथ प्रथमाध्याय राजोवाच मन्वंतराणि सर्वाणि त्वयोक्तानि श्रुतानि मे विरजाननंत विरजस्य हरेस्तत्र कृतानि च योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविणेश्वरः ज्ञानं यतीतकल्पान्ते लेभे पुरुषसेवया स वै विवस्वतः पुत्र मनुरासीदिति श्रुतम् त्वत्तस्तस्य सुताश्चोक्ता इक्ष्वाकु प्रमुखा नृपः तेषाम् वंशम् पृथग् ब्रह्मम् वंश्यानुचरितानि च कीर्तयस्व महाभाग नित्यम् शुश्रूषताम् हि नः ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये तेषाम् नः पुण्यकीर्तीनाम् सर्वेषाम् वद विक्रमान् सुत उवाच एवम् परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् श्रीशुक उवाच श्रूयताम् मानवो वंशः प्राचुर्येण परम् तप न शक्यते विस्तरतो वक्तुम् वर्षशतैरपि परावरेषाम् भूतानाम् आत्मा यः पुरुषः परः स एवासीदिदम् विश्वम् कल्पान्तेऽन्यन्न किञ्चन तस्य नाभेः समभवत् पद्मकोशो हिरण्मयः तस्मिन् यज्ञे महाराज स्वयम्भूश्चतुराननः मरीचिर्मनसस्तस्य यज्ञे तस्यापि कश्यपः दाक्षायण्याम् ततो दित्याम् विवस्वानभवत्सुतः ततो मनुः श्राद्धदेवः संज्ञायामास भारत श्रद्धायाम् जनयामास दश पुत्रान् सयात्मवान् इक्ष्वाकुनृगशर्यातिर्दिष्टधृष्टकरुषकान् नरिष्यन्तम् प्रसर्द्रम् च नभगम् च कविम् विभुः अप्रजस्य मनुः पूर्वम् वसिष्ठो भगवान् किल मित्रावरुणयोरिष्टिम् प्रजार्थमकरोत् प्रभुः तत्र श्रद्धा मनुः पत्नी होतारम् समयाचत दुहित्रर्थमुपागम्य प्रणिपत्यपयोव्रता प्रेषितोद्वर्युणा होता ध्यायंस्तत्सु समाहितः हविषीभ्यचरत्तेन वषट्कारम् गृणन् द्विजः होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् ताम् विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् भगवन् किमिदम् जातम् कर्म वो ब्रह्मवादिनाम् विपर्ययम् अहो कष्टम् मैवम् स्याद् ब्रह्मविक्रिया योऽयम् मन्त्रविदो युक्तास्तप्सा दग्धकिल्विषः कुतः सङ्कल्पवैषम्यम् अनृतम् विविधेष्विव तन्निशम्य वचस्तस्य भगवान् प्रपितामहः होतुर्व्यतिक्रमम् ज्ञात्वा बभासे रविनन्दनम् एतत्सङ्कल्पवैषम्यम् होतुस्ते व्यभिचारतः तथापि साधयिष्येते सुप्रजास्त्वम् स्वतेजसा एवम् व्यवसितो राजन् भगवान् स महाजसः अस्तौसीद् आदिपुरुषम् इलायाः पुंस्तु काम्यया तस्मै काम्बरम् तुष्टो भगवान् हरिरीश्वरः ददा विलाभवत्तेन सुदुम्नः पुरुषर्षभः स एकदा महाराज विचरन् मृगयाम् वने भृतः कतिपयामात्यै अश्वमारुह्य सैन्धवम् प्रगृह्य रुचिरम् चापम् सदांश्च परमाद्भुतान् दंशितोन्मृगम् वीरो जगाम दिशमुत्तराम् सकुमारो बनम् मेरो अधस्तात् प्रविवेशः यत्रास्ते भगवान् शर्वो रममाणः सहो मया तस्मिन् प्रविष्ट एवासौ सुदुम्नः परवीरः अपश्यत् श्रियम् आत्मानम् अश्वम् च बलवाम् नृप तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् दृष्ट्वा विमनसो भुवन् वीक्षमाणः परस्परम् राजोवाच कथमेवम् गुणोद्देशः केन वा भगवन् कृतः प्रश्नमेनम् समाचक्ष्व परम् कौतूहलम् हिनः श्रीशुक उवाच एकदा गिरिशं द्रष्टुं ऋषयः तत्र सुव्रतः दिशो वित्मिराभासा कुर्वन्तः समुपागमन् तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशं भर्तुलङ्कात् समुत्थाय नेवीम् अश्वत्थपर्व्यधात् ऋषोऽपि तयोर्वीक्ष्य प्रसङ्गम् रममाणयः निवृत्ताः प्रयुस्तस्मात् नरनारायणालयम् तदिदम् भगवानाह प्रियायाः प्रियकामेया स्थानमिह प्रविशेद् एतत् सवै योषित् भवेदिति तत ऊर्ध्वम् वनम् तद्वै पुरुषा वर्जयन्ति हि सा चानुचरसंयुक्ता विचार वनाद्वनम् अथ तामाश्रमाभ्यासे चरन्तीम् प्रमदोत्तमाम् स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुध सापितम् चकमे शुभ्रु सोमराजसुतम् पतिम् स तस्याम् जनयामास पुरुरवसमात्मजम् एवम् स्थितमनु प्राप्त सुदुम्नो मानवो नृपः सस्मार स्वकुलाचार्यम् वसिष्ठमिति शुश्रुमाम् स तस्य ताम् दशाम् दृष्ट्वा कृपया भृशपीडितः सुदुम्नस्याशयत्पुंस्त्वम् उपाधावत शङ्करम् तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् स्वाम् च वाचमृताम् कुर्वन् इदम् आह विषम् पते मासम् पुमांस भविता मासम् स्त्री तव गोत्रजः इत्थम् व्यवस्थयात् कामम् सुदुम्नोऽवतु मेदिनी आचार्यानुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया पालयामास जगतिम् नाभिनन्दन् स्मृतम् प्रजः तस्योद्गलो गयो राजन् विमलश्च सुतास्त्रयः दक्षिणापथराजानो बभूवुर्धर्मवत्सलः ततः परिणते काले प्रतिष्ठानपतिः प्रभु गुरुरवस उत्सृज्य गाम् पुत्राय गतो वनम् इति श्रीमद्भागवते महापुराणे नवमस्कन्धे इलोपाख्याने प्रथमोऽध्याय हरे कृष्ण 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 हरे 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 राम 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 हरे हरे।